मनसेन्द्रियैवा बुद्ध्यात्मना वा प्रकृतिस्वभावात् करोमि यद्यत् सकलं परस्मै श्रीमन्नारायणाय इति समर्पयामि नारायणाय इति समर्पयामि कृष्णार्पणमस्तु।